मरे चिन्तयास्थितं रावणं जाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपागम्य ब्रवीद् राम मतस्त्यो भगवान् ऋषिः राम राम महाबाहो श्रुगुह्यं सनातनम् येन सर्वानरी वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रु विनाशनम् जयावहं जपे नित्यं अक्षय्यं परमं शिवम्।
मृत्युः पिङ्गलः सर्वतापनः
कविर्विश्वो महातेजा रत्नः सर्वभवोद्भवः नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः सहस्रांशो आदित्याय नमो नमः नमः उग्राय वीराय सारंगाय नमो नमः नमः पद्मप्रबोधाय मार्कण्डाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे सर्वभक्षय रौद्राय वपुषे नमः तमोघ्नाय हिमग्नाय शत्रुघ्नाय मितात्मने कृतघ्नाय देवाय ज्योतिषां पतये नमः
जगाम चय
यथागतम्। एतत् श्रुत्वा महातेजा नष्टशोको भवत्तदा धारयामास सुप्रीतो राघवाः प्रयतात्मवान्। जप्त्वा तु परम हर्षमवाप्तवान्। क्रियाचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्। रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमान्। सर्वयज्ञेन महता वधे तस्य धृतो भवत्। सर्वयज्ञेन महता वधे तस्य धृतो भवत्।
अथर्वीरवदन्निरीक्ष्य राम मुदितमनाः परमं प्रहृष्यमाणः निशिचरपदि संशयं विदित्वा सुरगणमध्यगतो वचस्त्वरे सुरगणमध्यगतो वचस्त्वरे सुरगणमध्यगतो वचस्त्वरे
Mm-hmm.